ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜಿನೀವತೀ ಧೀನಾಮವಿತ್ರಯವತೋ ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುದತೇ ನಮಃ ಯಾತಯಿಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾ ನೋ ರುದ್ರಮೃಳಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋರಘೋರ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾ ವಿಜಾಗಶೀಃ ಯಾಮಿಷುಂ ಗಿರಿಶಂತ ಹಸ್ತೇಭಿ ಭಶ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗತ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ ಅಹೀಗಶ್ಚ ಸರ್ವಾಂಜಂಭಯನ್ ಸರ್ವಾಸ್ಯಯಾತು ಧಾನ್ಯಃ ಅಸಂಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಸ್ವ ಮಂಗಲಃ ಯೇ ಚೇವಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರಿತಾತ್ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳ ಈಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉದೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾದ್ಯಃ ಉದೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಧೋಗೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರನ್ ನಮಃ ರಮುಂಚ ಧನ್ವನತ್ವಮುಭಯೋರಾತ್ನಿಯೋರ್ಜ್ಯಾಂ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇ ಶುಧೇ ನಿಷೇರ್ಯ ಶಲ್ಯಾನಾಮುಖಾ ಶಿವೋ ನ ಸುಮನಾಭವ ವಿಜ್ಯಂ ಧನು ಕಪದ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಪುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇಹಿ ಧರ್ಮೀ ದುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೇ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅತ್ವಾಯುಧಾಯ ನಾದದಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುತತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಧೋಯಿಷುಧಿಸ್ತವಾರೆ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಿಂಬಕಾಯ ತ್ರಿಪುರಾಂಧಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯಂ ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమ తస్మే జరాయ త్రిషీమతే పదీనాం పదయే నమో నమో బబ్లుషాయ వివ్యాధినేనానాం పదయే నమో నమో హరికేశాయోపవీరినే పుష్టానాం పదయే నమో నమో భవస్య హేత్యై జగతాం పదయే నమో నమో రుద్రాయ తతావినే క్షేత్రాణాం పదయే నమో నమ సూతాయ హంత్యాయ వనానాం పదయే నమో నమో రోహితాయ స్తపతయే వృక్షాణాం పదయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పదయే నమో నమో భువంతయే వారివస్కృతాయోషధీనాం పదయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పదయే నమో నమ కృష్ణవీతాయ ధావతే సత్వనాం పదయే నమః నమః సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పదయే నమో నమః కగుభాయ నిషంగిణేస్తేనానాం పదయే నమో నమో నిషంగిణ ఇషుధిమతే తస్కరాణాం పదయే నమో నమో వంచతే పరివంచతే తాయూనాం పదయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పదయే నమో నమ శృగావిభ్యో జిగాగుంసద్భ్యోముష్ణదాం పదయే నమో నమో శ్రీమద్భ్యో నక్తం జరద్భ్య ప్రగ్రందానాం పదయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంజానాం పదయే నమో నమ యశుమద్భ్యో ధన్వావిభ్యశ్చ వో నమో నమ ఆధన్వానేభ్య ప్రతిదానేభ్యశ్చ వో నమో నమ ఆయచ్చభ్యో విసృజభ్యశ్చ వో నమో నమోస్యభ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమస్తిష్టభ్యో ధావద్భ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యోశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినీభ్యో వివిధ్యందేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రిగంహదేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపదిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపదిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమ కులాలేభ్య కర్మారేభ్యశ్చ వో నమో నమ पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमगिषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीदुष्टमाय जेष्वमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयते च नमो वृद्धाय च समृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्र्याय च शेभ्याय च नमः ओर्भ्याय च वत्सन्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धेयाय च नमः सोऽभ्याय च प्रतिसत्याय च नमो याम्याय च क्षेम्याय च नमः उत्पद्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरधाय च नमः शूराय चावबिन्धते च नमो वर्मिणे च वरोधिने च नमो बिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो कृष्णवे च प्रमृषाय च नमो भूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमः तीक्ष्णे च वेचायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयते च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोल्याय च नमः पाद्याय च वाद्याय च नमः ततरणाय चोत्तरणाय च नमः आताद्याय चालाद्याय च नमः षष्प्याय च भेन्याय च नमः त्रिकत्याय च प्रवाक्याय च नमः हिरण्याय च प्रपत्याय च नमः केगुंशिलाय च क्षगणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेख्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्भ्याय च सोर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्नते च नमः आखिदते च रक्षिदते च नमो वत्किरिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मारोमो येषाम् किञ्चनाममत् याते रुद्रशिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजीतया नो मृषजीवसे इमागुम् रुद्राय तवसे कपर्दिने के क्षयद्वीराय प्रबलामहे मतिम् यथा नश्यमषद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोदनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चम् च योच्चमनुराय जे पिता तदस्यामतव रुद्र प्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतनगे मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वदे अविष्मन्तो नमसा विधेमते आराते गोघ्नमुद पोरुषग्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु रक्षाजनो अरिजदेव ब्रूयराजन शर्म यच्चद्विबर्हाः स्तुहि श्रुतम् गत्त सदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्धु सेनाः परिणो रुद्रस्य हेतृणक्तु परित्वेषस्य दुर्मदिरघायोः अवस्थिरामगभद्यस्तनुष्वमीर्वत्तोकायतनयाय मृडया मीनुष्टमशिवतम शिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसा नमाचल पिनाकम् बिभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निव बन्धुताः सहस्राणि सहस्रदा बाहुवोत्तम हेतयः तासामीशानो भगवः पराचेनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागं सहस्रयो जने वदन्मानि धन्मसे अस्मिन् महत्यर्णवे अन्तरिक्षे भव अधि नीलग्रीवा श्रुतिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवा श्रुतिकण्ठादिवगुं रुद्र उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोभिताः ये भूतानामधिपतयो विशिखात कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिपदो जनान् ये पदाम्पधिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रजरन्ति सृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्तिरे तेषागुं सहस्रयो जने वदन्वानि धन्मसे नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदिचेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयं दिष्मो यश्च नो द्वेष्टितं वोजं वेददामि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नयो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मत्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे नृत्यवे स्वाहा नृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमष्टो यत्सुषुदन्वायो विश्वस्य क्षयदिभेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगो शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसृतिश्च मे दीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च आदितम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च ओजश्च मे सहश्च आयुश्च मे जरा च आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे परिमा च मे प्रतिमा च मे वश्वा च मे द्रागुया च मे वृत्तं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे द्विषश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमानं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपतं च मरुद्धं च मरुद्धिश्च मे कृप्तं च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धट्टा च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे सीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ओर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मौर्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभुज मे प्रभुज मे बहुच मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोजवाश्च मेनं च मे शुच्य मे व्रीहयश्च मे यवाश्च मे माशाश्च मे फिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सेसं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च मापश्च मे वेरुधश्च मौषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे उषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे दाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे ద్యోశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధాశ్చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంశ్చ మే రశ్మిశ్చ మే దాభ్యశ్చ మే ద్రిపతిశ్చ మ ఉపాగు తుశ్చ మేంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ అశ్వినశ్చ మే ప్రతి ప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రే చ మ అగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతు గ్రహాశ్చ మే దిగ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్పతీయాశ్చ మే మాహేంద్రశ్చ మహాదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్నీవతశ్చ మే హార్యోజనశ్చ మే ఇడ్బశ్చ మే బర్హిశ్చ మే వేలిశ్చ మే దృష్ణ్యాశ్చ మే సృజశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ వ ఉపలవాశ్చ మే విషవనే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతవృక్ష మాధవనీయశ్చ మ ఆగ్నేయర్ధం చ మే హవిర్దానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పజతాశ్చ మే వృతశ్చ మే స్వగాఖారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మేష్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే చత్వరిరంగులయో దిశశ్చ మే యజ్ఞేన కల్పం తామృశ్చ మే సామ చ మే స్తోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్దదంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవే చ మే నిత్యవాచ్య మే దిత్యౌహే చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సాచ మే తుర్యవాచ్య మే తుర్యౌహే చ మే పష్టవాచ్య మే పష్టౌహే చ మ ఉక్ష్రాచ మే వషాచ మరుషభశ్చ మే దేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మ ఆయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాం శ్రోత్రయజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే త్రిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏకవిగుంసదిశ్చ మే త్రయోవిగుంసదిశ్చ మే పంచవిగుంసదిశ్చ మే సప్తవిగుంసదిశ్చ మే నవవిగుంసదిశ్చ మ ఏకత్రిగుంసచ్చ మే త్రయస్త్రిగుంసచ్చ మే చతస్రశ్చ మే అష్టౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంసదిశ్చ మే
चतुर्विगुंसतिश्च मेष्टाविगुंसतिश्च मे द्वात्रिगुंसच्च मे षट्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे अष्टाचत्वारिगुंसच्च मे पाशश्च प्रसवश्च विजश्च क्रतुश्च शुभश्च मूर्धा च व्यश्नेयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इरादेवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्तामदानि सगुंसिष विश्वे देवासोऽर्तवाच पृथिवीमा धर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यातकम् शुश्रोषेण्या मनुष्येभ्यस्तम् वा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातं यज्ञाय गातं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्ति मानुषेभ्यः ऊर्ध्वं दिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपाल् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वशेषाणः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायागुस्य पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्बहुदैत्पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वम् व्यक्रामत साशनानशने अभि तस्माद् विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्याद्विराज्यम् ग्रीष्म हिद्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यज्ञज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तै यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् पृषदाज्यम् पशुगुस्तागुश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋषः सामानिजग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयादतः दावोहजग्निरेतस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कदिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहो राजन्यः कृतः ओरो तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् श्रेष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवरण्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्य सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्ववाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते अनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य देहा परिजानन्ति योनिम् मरीचीनाम् परमिच्छन्ति वेदसः यो देवेभ्य आदपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदद्ब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेष्यते लक्ष्मीशपत्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाणा अमम् मनिषाणा सर्वम् मनिषाणा तच्छयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्च दुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ नत्रिणात्वा कृमेहन्ये कण्वेन जमदग्निना विश्वावतोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषा दुस्तपतिर्हतः अधो माता अधो पिता अधो स्थूरा अधो क्षुद्रा अधो कृष्णा अधो श्वेता अधो आजातिका हता श्वेता भिस्सा सर्वे हता आहरा वद्य श्रुतस्य हविषो यथा तत् सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् घन् भण्वसि ॐ शान्ति शान्ति शान्तिः आतु नगिन्द्रक्षुमन्त्रम् चित्रम् ग्राभम् सङ्गृभाय महाहस्ते दक्षिणेन विद्माहित्वा तु विकोर्मिम् तु विदेष्णम् तु विमघम् तु विमात्रमवोभिः नहित्वा शूरदेवानमर्तासो दिक्सन्दम् भीमम् नगाम् वारयन्ते एतोर्निन्द्रम् तवामेशानम् स्वराजम् नराधसामर्दिशन्नः प्रस्तोषदुपदादिशत्सवत्सामगीयमानम् अभिराधसाजुगुरद आनो वरदक्षिणेनाभिसव्येन प्रमृषा इन्द्रमानो वसो निर्भाक् उपक्रमस्वा भरदृषता कृष्णो जनानाम् अदाशोत्तरस्य वेदः इन्द्रय उनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुदम् धनुहि सद्यो जुवस्ते वाजा अस्मभ्यम् विश्वश्चन्द्राः वशैश्चमक्षो जलन्दे गणानाम् त्वाम् गणपतिम् हवामहि कविम् कवीनामुपमश्रवत्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पतानः शृण्वन्नो दिभ्येदसादनम् निषुसेद गणपते गणेषु स्वामा गुर्विप्रथमम् कवीनाम् नर्ते त्वक्रियते किञ्चनारे महामर्कम् मघवन् चित्रमर्च अभिज्ञानो मघवन्नादमानान् सघे वो दिवसुपते सघीनाम् रणम् कृतिरणकृत्सत्यचुष्मा भक् ते चिदा भजाद्राये अस्मान् ॐ शान्ति शान्ति शान्तिः देवस्य त्वात् सवितु प्रसवे अश्विनोर्बाहुभ्या पोष्णो हस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसा याभिषिञ्चामि देवस्य त्वात् सवितु प्रसवे अश्विनोर्बाहुभ्याम् पोष्णो हस्ताभ्याम् सरस्वत्यै वैषज्येन वेद्यायान्नाद्यायाभिषञ्जामि देवस्य त्वा सवितु प्रसवे अश्विनोर्बाहुभ्याम् ओष्णोहस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषञ्जामि देवस्य त्वा सवितु प्रसवे अश्विनोर्बाहुभ्याम् पोष्णोहस्ताभ्यागम् सरस्वत्यै वाचो यन्द्रेणाग्ने त्वा साम्राज्येणाभिषञ्जामि इन्द्रस्य त्वा साम्राज्येणाभिषञ्जामि बृहस्पते त्वा साम्राज्येणाभिषञ्जामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनस्यामाशास्ते उत्तरान् देवयज्ञामाशास्ते भूयो हविष्करणमाशास्ते दिव्यं धामाशास्ते विश्वं प्रियमाशास्ते यदनेन हविषाशास्ते तदस्यात् तदृद्याद् तदस्मै देवारासन्दाम् द्रुपदादिवेमोचानः त्रिन्नस्नाद्वेमलादिव पूतम् पवित्रेणेवाज्यम् आपश्यन्दन्तुमैनसः वोर्भुवत्सु वः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ ईशावास्यमिदगुम् सर्वम् यत्किञ्च जगत्याम् जगत् तेन त्यक्तेन भुञ्जेधामाकृतः कस्य सिद्धनम् कुर्वन्नेवेह कर्माणि जिजे विशेषदगुम् समाः एवम् त्वयि नान्यतेतोऽस्ति न कर्म लिप्यते नरे असुर्यानामते लोका अन्धेन तमसावृताः तागस्ते प्रेत्या विगच्छन्ति ये के च महदो जनाः अनेजदेकम् मनसो जवेयो नैनद्देवा आप्नुवन् पूर्वमर्षत् तद्धावतो नान्नत्ये धिष्ठ तस्मिन्नपो मातरिष्वा दधाति तदेजदि तन्नेजदि तद्दूरे तद्वन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य वाक्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यते సర్వభూతేషు చాత్మానం తతో న విజుగుప్సతే యస్మిన్ సర్వాణి భూతాన్యాత్మైవ భూద్విజానతః తత్ర కో మోహక శోక ఏకత్వమనుపశ్యతః సపర్యగాచ్ఛుక్రమకాయమవ్రణమస్మా విరగుం శుద్ధమపాపవిద్ధం కవిర్మనీషే పరిభూద్వయంభూర్యాధా సత్యతోర్థాద్వ్యదధాచ్చాశ్వతేభ్యః సమాభ్యః అంధం తమప్రవిశంది యే విద్యాముపాతతే తతో భూయ ఇవ తే తమోయౌ విద్యాయాగుం గతాః అన్యదేవాహుర్విద్యయా అన్యదాహురవిద్యయా ఇది శుశ్రుమదేనాం యేనస్తద్విదచక్ష్యరే విద్యాంచ విద్యాంచ యస్తద్వేదోభయగుంతః అవిద్యయా మృత్యుంతేర్త్వా విద్యయామృతమశ్నుతే అంధం తమప్రవిశంది యే సంభూతిముపాసతే తతో భూయ ఇవ తే తమోయౌ సంభూత్యాగుం రతాః అన్యదేవాహుః సంభవాదన్యదాహురసంభవాత్ ఇతి శుశ్రుమధీరాణాం యేనస్తద్విజచక్షిరే సంభూతిం చ వినాశం చ యస్తద్వేదోభయగుం సః వినాశేన మృత్యుం తీర్త్వా సంభూత్యా మృతమశ్నుతే హిరణ్మయేన పాత్రేణ సత్యస్యాభిహితం ముఖం తత్వం భూషన్న పావృణు సత్యధర్మాయ దృష్టయే పూషన్నే కర్షే యమసూర్య ప్రాజాపత్య వ్యూహరశ్మి సమూహతే జోయత్తే రూపం కళ్యాణతమం తత్తే పశ్యామి యోసావసౌ పురుషః సోహమస్మి వాయురనిలమమృతమదేదం భస్మాంతగుం శరీరం ఓం క్రతోస్మర కృతగస్మర అగ్నేన యసుపదా రాగే అస్మాన్ విశ్వాని దేవ వయునాని విద్వాన్ యుయోధ్యస్మజ్జుహురాణమేధో భూయిష్టాన్ తే నమ ఉక్తిం విదేమ ఓం పూర్ణమదః పూర్ణమిదం పూర్ణాత్ పూర్ణముదచ్యతే పూర్ణస్య పూర్ణమాదాయ పూర్ణమేవావశిష్యతే ఓం శాంతి శాంతి శాంతిః స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేణ మహీం మహీషా గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు ఓ శా